इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। आदौ मुख्य वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी आगामि सप्ताहे थाईलैंड श्रीलंका देशयोः यात्रायै गमिष्यति। अत्रांतरे बैंकॉक नगरे षष्ठे बिम्स्टेक शिखर सम्मेलने भागं भजिष्यति। सहैव कोलंबो नगरे शीर्ष नेतृत्वेन सह द्विपक्षीय वार्तामपि साधयिष्यति। विदेश मंत्री डॉ एस जयशंकरः अद्य प्रोक्तवान् यत् भारत देशः पाकिस्तान देशे अल्पसंख्यक जनैः सह जायमानः दुर्व्यवहारः सावधानतया अवलोकयति। सहैव एतं प्रकरणं अन्ताराष्ट्रिय स्तरेपि समुत्थापयति। षोडश शताब्द्याः राजपूत शिरोमणिं राणा सांगा इत्यमुं विरुध्य समाजवादी पार्टीति दलस्य सांसदेन कृतां टिप्पणीमालक्ष्य राज्यसभायां कोलाहलः संजातः। म्यांमार देशे अद्य समागत भूकंपाभ्यां केषांचित् जनानां मृत्युः संभाव्यते। बैंकॉक नगरेपि तीव्र कंपः अनुभूतिमागतः। ऑस्ट्रेलिया देशस्य प्रधानमंत्री एंथनी अल्बनीजा इत्येषः मई मासस्य तृतीय दिनांकात् सामान्य निर्वाचनं भविष्यति इत्यघोषयत्। अपि च टेनिस क्रीडायां नोवाक जोकोविच एटीपी मास्टर्स 1000 इत्यस्याः क्रीडायाः उपान्त्यचक्रे प्रविश्य प्राचीनतमः क्रीडकः भूत्वा ऐतिह्यं विरचितवान्। अथ वार्ताः विस्तरेण। प्रधानमंत्री नरेन्द्र मोदी आगामि मासस्य तृतीय दिनांकादारभ्य थाईलैंड श्रीलंका देशयोः यात्रायां भविष्यति। स्वयात्रायाः प्रथमे चरणे श्रीमोदी थाईलैंड देशेन समायोजिते षष्ठे विम्स्टेक शिखर सम्मेलने भागग्रहणार्थं द्विदिवसीय यात्रायै बैंकॉक नगरं गमिष्यति। अस्माकं संवाददात्रा विज्ञापितं यत् अस्य शिखर सम्मेलनस्य विषयः अस्ति विम्स्टेक समृद्धिः मुक्तञ्चास्ति इति। श्रीमोदिनः एषा यात्रा थाईलैंड देशस्य प्रधानमन्त्रिणः पेटोंग गटार्न शिनावात्रा इत्यस्य आमन्त्रणे भवति। एषा तस्य तृतीया थाईलैंड यात्रा भवति। अस्मिन् सत्रे विम्स्टेक नेतृभिः विम्स्टेक रूपरेखायां सहकार्यं वर्धयितुं विविध संस्था तथा क्षमता निर्माण उपायानां विषये चर्चाः भवितुमर्हन्ति। अस्य यात्रायाः अनन्तरं श्रीमोदी आगामि मासस्य चतुर्थ दिनांकात् त्रिदिवसीय राजकीय यात्रायां श्रीलंका देशं गमिष्यति। श्रीलंका देशस्य राष्ट्रपत्युः अनुराग कुमार दिशानायकेत्यस्य निमन्त्रणे प्रधानमन्त्री राष्ट्रपति दिशानायकेन सह चर्चां करिष्यति। विदेश मंत्री डॉ एस जयशंकरः अद्य प्रोक्तवान् यत् भारत देशः पाकिस्तान देशे अल्पसंख्यक जनैः सह जायमानः दुर्व्यवहारः सावधानतया अवलोकयति। सहैव एतं प्रकरणं अन्ताराष्ट्रिय स्तरेपि समुत्थापयति। लोकसभायां कस्यचन प्रश्नस्य उत्तरप्रदानसमये डॉ जयशंकरः अवदत् यत् संयुक्तराष्ट्रमानवाधिकारपरिषदि भारतीय प्रतिनिधिना एतस्मिन् विषये सम्यक् प्रकाशितम्। तेनोक्तं यत् पाकिस्तान देशे मानवाधिकाराणां हननम् अल्पसंख्यकजनानाम् उत्पीडनं लोकतान्त्रिकमूल्यानां चापमानम् इत्यत्रयाः नीतयः सन्ति। अन्यस्य कस्यचन प्रश्नस्य उत्तरं प्रददन् विदेशमन्त्री प्रोक्तवान् यत् नवदिल्ली बांग्लादेशे अल्पसंख्यकजनानां कल्याणार्थमपि दृष्टिं संस्थापयति। समाजवादी पार्टीति दलस्य सांसदेन रामजी लाल सुमनेन षोडश शताब्द्याः राजपूत राजानं राणासांगा इत्यमुं विरुध्य कथिताः आपत्तिपूर्ण टिप्पण्यः आलक्ष्य कोलाहलम् अभवत्, येन अद्य मध्याह्नपर्यन्तं राज्यसभा स्थगिता जाता। पुनः कार्याचरणस्य आरम्भानन्तरं सदस्याः विषयम् उत्थाप्य समाजवादी पक्षस्य नेतारं स्वटिप्पण्याः कृते क्षमायाचनां कर्तुम् आग्रहं कृतवन्तः। राज्यसभाध्यक्षः जगदीप धनखड़ः उक्तवान् यत् राष्ट्रनायकानाम् अपमानं न कर्तव्यम्। सदस्याः एतादृशाणां महापुरुषाणां विषये टिप्पणीं कुर्वन्तः अतीव संवेदनशीलाः भवेयुः।
Rana Sangha was such a venerable figure. He lost his one hand, he lost his one leg, he lost half of his body fighting valiantly. We have heroes all over. We have Shivaji, we have Rana Sangha, we have Maharana Pratap, we have Birsa Munda. I would therefore want this house to unanimously endorse that as members of this house, we will maintain highest rectitude.
संसदीय कार्याणां मंत्री किरेन रिजिजुः सदस्येभ्यः आग्रहं कृतवान् यत् ते अध्यक्षस्य निर्देशानाम् आदरं कुर्वन्तु।
राणा सांगा को लेकर के जो वक्तित्व दिया, अगर यहाँ से हटा भी दिया, वो बाहर सोशल मीडिया और न्यूज में तो वो तो बिल्कुल चल रहा है, और सुन के किसी को कैसे मंजूर होगा जो भाषा और जिस लहजे में माननीय सदस्य जी ने राणा सांगा के बारे में बोला है। इसलिए मैं आपके बात को सहमत करते हुए मेरा तरफ से ये दरखास्त है, आप भी खुले तौर पर ऐसे स्टेटमेंट का खंडन कीजिए।
केन्द्रीय मंत्री पीयूष गोयलः अपि समाजवादी पक्षस्य नेतुः वचनं निन्दनीयम् इति उक्तवान्। विपक्षस्य नेता मल्लिकार्जुन खड़गेपि देशस्य कृते प्राणाहुतिं कृतानां सर्वेषां जनानां सम्मानं करणीयम् इति उक्तवान्। सः तु अवदत् यत् संसद भवने आक्रमणं कृत्वा विधेः उल्लंघनं नोचितम्।
आप जो बातें कही राणा सांगा के बारे में, राणा प्रताप जी के बारे में, उन सबका हम सम्मान करते हैं। दूसरी बात मैंने ये कहा कि कोई बात का आपको और उनमें मतभेद है तो इसका मतलब ये नहीं किसी का घर जलाओ, किसी के घर के ऊपर बुलडोजर लगाओ।
कोलाहल से मध्य उपाध्यक्ष सदनम मध्याह्न द्वादश वादन पर्यंतम स्थगितवान्। राणासांगा इत्यस्य विषये कथिताः आक्षेपार्ह टिप्पण्यः अपि लोकसभायाम् उत्थापिताः। कोलाहलपूर्णदृश्यानां मध्ये लोकसभा अपराह्न द्विवादनपर्यन्तं स्थगितम्। प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव कार्यक्रमोऽयम् आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। म्यांमार देशे अद्य 7.7 तथैव 6.4 रिक्टेयर मानेन समागताभ्यां भूकंपाभ्यां केषांचित् जनानां मृत्युः संभाव्यते। सांगाइंग क्षेत्रस्य समीपे केन्द्रितेन भूकंप मण्डलनगरस्य प्रतिष्ठितः अवा इति सेतुबन्धः पतितः। सहैव इराव दी नद्याः समीपे स्थितानां बहूनि भवनानि च विनष्टानि। थाईलैंड देशस्य राजधान्याः बैंकॉक नगरात् प्रायः 900 किलोमीटर मितं यावत् दूरेपि सशक्तं भूकंपनं अनुभूतम्, येन जनाः स्वगृहाणि परित्यज्य बहिरागन्तुं बाधिताः अभवन्। थाईलैंड देशस्य प्रधानमन्त्रिणा पेंटोंगटार्न सिनावात्रा इत्यमुना आपत्कालस्थितिः समुद्घोषिता। थाईलैंड देशस्य आपन निवारण विभागेन प्रोक्तं यत् भूकंपः देशस्य प्रायः सर्वेषु प्रदेशेषु अनुभूतः। पश्चिम बंगाल मणिपुर प्रदेशयोः अपि भूकंपस्य प्रभावः अनुभूतिमागतः। ऑस्ट्रेलिया देशस्य प्रधानमंत्री एंथनी अल्बनीजः इत्येषः देशे वर्षेस्मिन् मई मासस्य तृतीय दिनांकात् सामान्य निर्वाचनं भविष्यति इत्यघोषयत्। श्री अल्बनीज इत्यनेन संसद भवनस्य वार्ताहर सम्मेलने एतद् उद्घोषितम्। निर्वाचने मुख्य संघर्षः प्रधानमंत्री अल्बनीज इत्यस्य लेबर दलस्य अथ च मुख्य प्रतिपक्ष नेतुः पीटर डटन इत्यस्य रूढ़िवादी बंधनयोः च मध्ये भविष्यति। टेनिस क्रीडायां नोवाक जोकोविच एटीपी मास्टर्स 1000 इत्यस्याः क्रीडायाः उपान्त्यचक्रे प्रविष्टः। प्राचीनतमः क्रीडकः भूत्वा मियामी ओपन क्रीडायाः ऐतिह्यं विरचितवान्। तेन रोजर फेडर इत्यमुम् अतिक्रम्य इदं कीर्तिमतं विरचितम्। रोजर फेडर इत्यनेन 29,000 वर्षे 7-37 वयसि इंडियन वेल्स तथा मियामी ओपन क्रीडायाः अंतिम चतुष्टये प्राप्तमासीत्। सप्तमं मियामी ओपन उपाधिम् अन्विष्यमाणः जोकोविचः अधुना अद्य रात्रौ भारतीय मानक समयानुसारी 12:30 बल्गेरिया देशस्य ग्रिगोर दिमित्रोव इत्यमुं सम्मुखी करिष्यति इति वार्ताः।